गणानां त्वा गणपतिगं हवामहे कविं कवीनामुपमश्रवस्तवम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्कृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीया पवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरि ओम्
ॐ नमो भगवते रुद्राय
ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकसि यामिषम् गिरिशन्तहस्ते विवश्यस्तवे शिवाम् गिरित्रताम् कुर्माहि गुंसेः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत अद्य वोचदधिवक्ता प्रथमो दैव्यो विशक अहेगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागम् रुद्रा अवितो दिक्षुश्रुता सहस्रशो वैशागुम् हेड ईमये असव्यो वसत्पतिनीलग्रेवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहार्यः अतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मयोज्य याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्ष ते सुधे निषेर्य शल्यानाम् मुखा शिवो नः समना भव निर्जम् तनुः कपर्दिनो विशल्यो बाणवागम् उत अनेशन्नस्येषव आभुतस्य निषङ्गतिः जाते हेतिर्मीदष्टमहस्ते बभूवते धनुः तया स्वान्विश्वतस्त्वमयक्ष्मया परिभ्युज नमस्ते अस्त्वायुधायानाथताय धृष्णवे उवाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो यशधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय अयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः namo hiranyabhave senanye disham cha patane namo namo vrikshebhyo harikeshebhyo pashunam patane namo nama sastinjarayatrishimate pathinam patane namo namo bablushaya vyadhine nanam pataye namo namo harikeshayo pavitine pushtanam pataye namo namo bhavasya hetye jagatam pataye namo namo rudraya tata vinikshetranam pataye namo namo sutaya hantyaya vananam pataye namo namo rohitaya sthapataye vrakshanam pataye namo namo mantrine vanijaya kakshanam pataye namo namo bhavantaye varivaskrata aushadhinam pataye namo nama ucchay ghoshaya krandayate pattinam pataye namo nama vitsnaveta yathavate sattvanam pataye namaha namah sahamanaya nivyadhina avyadhininam pataye namo nama kakubhaya nishangine tenanam pataye namo namo nishangina ishadhimate taskaranam pataye namo namo vanchate parivanchate stayuna pataye namo namo nicherave paricharayaranyanam pataye namo namasrakavibhyo jigagum sadhyo mushnatam pataye namo namo simadhyo nakkamcharadhyo prakrantanam pataye namo namo ushneshine giricharaya kulanchanam pataye namo namo isumadhyo dhanvavibhyascha ho namo namo atanvanebhyo pratitadhanebhyascha ho namo namo ayachadhyo visrujadhyascha ho namo namo syadhyo vidyadhyascha ho namo namo asinebhyascha ho namo namo svapadhyo jagradhyascha ho namo namastishtadhyo dhavadhyascha ho namo namasamabhyascha vapadibhyascha ho namo namo ashvebhyo ashvapadibhyascha ho namaha nama avyadhinebhyo vividhyantebhyascha ho namo nama ugadabhyastrigumhatebhyascha ho namo namo vritsebhyo vritsapatibhyascha ho namo namo bratebhyo ratapatibhyascha ho namo namo ganebhyo ganapatibhyascha ho namo namo virupebhyo vishvarupebhyascha ho namo namo mahatbhyah shallakebhyascha ho namo namo ratebhyo ratebhyascha ho namo namo ratebhyo ratapatibhyascha ho namo namo senabhyasenanibhyascha ho namo namah kshatrabhyasangrahitrabhyascha ho namo namah takshadhyo rathakarebhyascha ho namo namah kulalebhya karmarebhyascha ho namo namah punjishtebhyo nishadebhyascha ho namo namo ishukrutbhyo dhanvakrutbhyascha ho namo namo mrigayabhyashvanibhyascha ho namo namo shvabhyashvadibhyascha ho namaha namo bhavaya cha rudraya cha namo sarvaya cha vasuvataye cha namo nilagrivaya cha shitikantaya cha namo kamardine cha yuktakeshaya cha namo sahasrakshaya cha shatadhanvane cha namo girishaya cha shimivishtaya cha namo నేనుష్టమాయ చేసుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమో ఆశవే చాజిరాయ చ నమో శేఘ్రయాయ చ శేభ్యాయ చ నమో నమ్యాయ చ వస్వన్యాయ చ నమః శోతస్యాయ చ ఏభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్మియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమో ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరోథినే చ నమో బిల్మిణే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రభుషాయ చ నమో ద్యోతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తే క్ష్ణేశవే చ యుధినే చ నమః స్వాహ్యుతాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాత్యాయ చ నేప్యాయ చ నమః సోధ్యాయ చ సరస్యాయ చ నమో నాధ్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఏద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తవాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తేత్యాయ చ కౌల్యాయ చ నమః వార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆధార్యాయ చ లాధ్యాయ చ నమః శస్యాయ చ ఫేన్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమైరణ్యాయ చ ప్రపత్యాయ చ నమః విగుంశిలాయ చ శయనాయ చ నమః కవర్ధినే చ పులస్త్రయే చ నమో కోష్ఠ్యాయ చ గహ్యాయ చ నమః సల్ప్యాయ చ గేహ్యాయ చ నమః कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागं सव्याय च रजस्याय च नमः षष्ट्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः नौर्व्याय च सौर्म्याय च नमः पर्ण्याय च वर्णशद्याय च नमो पघुरमाणाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमेवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्मेलोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्रशिवा कनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कवर्दिने क्षयत्वेराय प्रवरामहे मतिम् यदा नश्रवसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृति क्षयत्वेराय नमसा विधेमते यच्चम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमानौक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तौ केतनये मान आयुषि मानो कोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदे भविष्मन्तो नमसा विधेमते आरात्ये गोग्न उत पुरुषद्मे क्षयद्वैराय सुम् नमस्मे ते अस्तु रक्षा च नो अदि च देव ब्रूयदा च न शर्म यच्च द्विवर्हाः स्तुहिश्रुतम् गत्त सदैवानम् मृगन्न भीममुपहत्मुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्मृडक्त्वपरि त्वेषस्य दुर्मतिरघायोः अवस्थिरा भगवद्भ्यस्तनुष्वमेवस्तोकायतनयाय मृडया मेडुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्यम् वसा न आचर पिनाकम् विप्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः सामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रादिभूम्याः एषागुम् सहस्रयोजने वदन्मानि तन्मसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अदि नीलग्रीवाशितिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाश्यतिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयोऽभिषिकासः कवर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पतां पतिरक्षय ऐलभृदायभ्युदः ये तीर्थानि प्रचरन्ति स्विकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिव्येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतेचेर्दशो देचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयं विष्मो यश्च नो द्वेष्टितं भोजं वेददा त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिह बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्या यहन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि नमुष्टु हि यश्विशुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो निर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषयो यगुम् शैवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ शनम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च ममृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेणागुम् राजा अप्येषागुस्थपतिर्हतः अथो माता अथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता श्वेताभिः सह सर्वे हता आहरावद्या शतस्य हविषो यथा తత్ సత్యం యదమయ్యమస్య జంభయోః ఆదధామి తథా హి తత్ ఖన్ ఫన్ వ్రసి ఓం శాంతి 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 ఓం భూమిర్భూమ్నార్భ్యోర్వరిణాంతరిక్షం మహిత్వా ఉపస్థేతే దేవ్యదితే నిమన్నాదమన్నా ధ్యాయాదధే ఆయంగౌ కృష్ణిరక్రమీదశనం మాతరం పునః ఇతరం చ ప్రయంసువః త్రిగుంశద్ధామవిరాజదివాక్పతంగాయశశ్రియే ప్రత్యస్య వహద్యుభిః అస్య ప్రాణాదపానత్యంతశ్చరతిరోచనా వ్యక్ష్యన్మహిషస్సువః యద్వా క్రుద్ధ పరో వపమన్యునాయదవర్త్యా సుకల్పమగ్నే తత్తవ పునస్తోధీపయామసి యత్తే మన్యుపరోక్తస్య పృథివీ మనుదధ్వసే ఆదిత్యా విశ్వే తద్దేవావసవశ్చ సమాభరన్ మనోజ్యోతిర్జుషతామాజ్యం విచ్ఛిన్నం యజ్ఞగుం సమిమం దధాతు బృహస్పతిర్తనుతామివం నో విశ్వే దేవా ఇహమాదయంత మేదినీ దేవీ వసుంధరా స్యాత్ వసుధా దేవీ వాసవే బ్రహ్మవర్చస పితృణా విశ్రోత్రం చక్షుర్మనః దేవీ హిరణ్యగర్భిణీ దేవీ ప్రసూపరీ సదనే సత్యాయనే సీదా సముద్రవతీ సావిత్రీ హనో దేవీ మహ్యంగీ మహీధరణీ మహోవ్యతిష్ఠా శృంగే శృంగే యజ్ఞే యజ్ఞే విభీషిణీ ఇంద్రపత్నీ వ్యాపినీ సురసరిదిహ వాయుమతీ జలశయనీ శ్రియం ధారాజా సత్యం ధ్రోపరిమేదినీ శ్లోపరిధత్తం పరిగాయ విష్ణుపత్నీ మహీం దేవీం మాధవీం మాధవ ప్రియా లక్ష్మీం ప్రియసఖీం దేవీం నమామ్యచ్యుతవల్లభాం ధనుర్ధరాయై విద్మహే సర్వసిద్ధ్యై చ ధీమహి తన్నోధరా ప్రచోదయాత్ మహీం దేవీం విష్ణుపత్నీ మజూర్యా ప్రతీచీ మే నాగుం హవిషాయ చామహ త్రేధా విష్ణురుగాయో విచక్రమే మహీం దివం పృథివీ మంతరిక్షం తచ్చ్రోణే తిశ్రవ ఇచ్చమానా పుణ్యగుశ్లోకం యజమానాయ కృణ్వతే ఓం శాంతి 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 ఓం అహం రుద్రేర్భిర్వసుభిశ్చరామ్యహమాదిత్యేరుత విశ్వదే అహం మిత్రవరుణో మా విభర్వ్యహమింద్రాగ్ని అహమశ్వినో మా అహం సోమా మాహనసం విభర్వ్యహం త్వష్టారభుతభూషణం భగం అహం దాధామింద్రవీణం హవిష్మాదే సుప్రాయే యజమానాయ సున్వతే अहम् राष्ट्रे सङ्गमानि वशो नाम चकेतुषे प्रथमा यज्ञियानाम् तामा देवाव्यादधुः पुरुत्रा भूरिस्तात्रा भूर्या भेषयन्ते मयासो अन्नामत्रियो विपश्यति यः प्राणीति ययि शृणोत्युक्तम् अमन्त भूमान्त उपक्षयन्ति श्रुति श्रोत श्रद्धिवम् ते वदामि अहमेव स्वयमिदम् वदामि दुष्टम् देवेभिः हृतमानुषेभिः यम् कामयेतन्तामुग्रम् कृणोमि तम् ब्रह्माणम् तमृषिम् तम् सोमेधा अहम् रुद्राय धनुरातानोमि ब्रह्मद्विषे शरा वेहन्त वा ओ अहम् जनाय समदम् कृणोम्यः ध्यावा पृथिवी आविवेश अहम् सोमे पितरामस्य मूर्धन्ममयोनिरप्स्वा अन्तः समुद्रे ततो वितिष्ठे भुवनानु विश्वोतामोन्द्या वर्ष्मणोपस्पृशामि अहमेव वाता इव प्रवाम्यारभामाना भुवानानि विश्वा परो दिवापर येन पृथिव्येतावति महिना सम्भूव शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाशुचय पावकाया सुजात कश्यपो यास्विन्द्रः अग्नेया गर्भम् दधिरे विरूपास्ता न आपश्यग्स्यो न भवन्तु या सागुम् राजा वरुणो याति मध्ये सत्यानृते अवपश्यम् जनानाम् मधुश्च शुचयो या पावकास्ता न आपश्यग्स्यो न भवन्तु यासाम् देवाधिविकृण्वन्ति भक्षय्या अन्तरिक्षे बहुधा भवन्ति या पृथिवीम् वयसोन्दन्ति शुक्रास्ता न आवश्यज्ञस्यो न भवन्तु शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोपस्पृशतम् त्वचम् मे सर्वागुम् अग्नेगुम् रप्सुषदो हृवे वो मैवक्षो बलमोजो निधत्ता पवमानः सुवर्जनः पवित्रेण विचर्षणिः यः पोता स पुनातु मा पुनन्तु मा देवजनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः जातवेदः पवित्रवत् पवित्रेण पुनाहि मा शुक्रेण देवदेध्यत् अग्ने क्रत्वा क्रतु गुम्रणो यत्ते पवित्रमर्चिषे अग्ने विततमन्तरा ब्रह्मते न पुनीमहे उभाभ्याम् देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुनीमहे वैष्णदेवी पुनति देव्यागात् यस्यैवंस्तनुवो वीतपृष्ठाः तया मदन्तः स नमाद्येषु वयग्स्यामपतयोरयीणा वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेः शिरोमयो भूः द्यावा पृथिवी पयसापयोभिः रतापरि यज्ञे मा पुनीता बृहद्भिः सवितस्त्रभिः वर्षिष्ठैर्देवमन्मभिः अग्ने दक्षिणे पुनाहिमा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पावमानीरध्येते ऋषिभिः संहृतकुम् रसम् सर्वम् सभूतमश्नाते स्वदितम् मातरिष्वना पावमानीर्यो अध्येते ऋषिभिः संहृतकुम् रसम् तस्मै सरस्वती दुहे क्षीरकुम् सर्पिर्मधूदकम् पावमानी स्वस्त्यजनीः सुदुगाहि पयस्वतीः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतकुम् हितम् पावमानीर्दिशन्तु नः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः देवैर्देवैः समाभृताः पावमानीः स्वस्त्यजनीः सुदुगाहि धृतश्च्युतः ऋषभिः संहृतो रसः ब्राह्मणेष्वमृतगुम् हितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यम् पवित्रम् शतोऽध्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् पूतम् ब्रह्म पुनीमहे इन्द्रस्वनीति सह मा पुनातु सोमस्वस्त्या वरुणः समीच्या यमो राजा प्रभृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छयो रावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्त्वनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तुर्द्विपदे शम् चतुष्पदे शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्य कृत्तिवासा पिनाकी ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषाघृतेन विभ्राजमानः शरीरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् समृत्युपाशानपनुद्य घोरान्यायुषेण मृतमत्तु देवः ब्रह्मज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात् पुरुरूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमक्षम् तमायुषे वर्धयामो घृतेन श्रियम् लक्ष्मीमौ बलामम्बिकाङ्गाम् षष्टीम् च या इन्द्रसेनेत्युदाहुः ताम् विद्याम् ब्रह्मयो निगुंसरूपमिहायुषे तर्पयामो घृतेन दाक्षायण्यः सर्वयोऽन्यः स योऽन्यः सहस्रशो विश्वरूपाविरूपाः ससूनवःसपदयः स योग्या आयुषेण हृतमिदम् जुषन्ताम् निव्यागणा बहुरूपा पुराण आयश्चिदो नः प्रमथ्नन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मान प्रजागुम्रीरिषो मोत वीरान् एकः पुरस्ताद्य इदम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराये स नो हविर्घृतमिहायुषे तु देवः असोन्नुद्रानादित्यान्मरुतोत साध्यान् रघोन्यक्षान् गन्धर्वागश्च पितृगश्च विश्वान् ृगोन्दर्पागश्चाङ्गिरसोऽथ सर्वान् हृदम् हत्वा सायुष्य मायामशश्वत विष्णो त्वन्नो अन्तमः शर्म यच्च सहन्त्या रते धारामधुश्च्युत उत्सन्द रते अक्षितम् ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवामसो ममराति यतो नितहाति वेदः स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् धुरितात्यग्निः मग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफले सुजुष्टा दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा तोश्च पृथिवी बहुला न उर्वी भवा लोकायतनयाय संयोः निःशारिणो दुर्गः जातवेदः सिन्धुन्ननावाधुरितातिपर्षि अग्ने अत्रिवन्मनसा गृह्णानो अस्माकम् बोध्यविता तनो नाम् हृतनाजितगुम् सह मानमुग्रमग्निगुम् हुवेम परमात्सदस्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः रत्नोषि कमीड्यो अध्वरेषु सनाच्यमोता नव्यश्च सत्से स्वाञ्जाग्ने तनुवम् विप्रयस्मास्मभ्यम् च सौभनमायजस्व गोभिर्जष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनु सञ्चरेम नाकस्य पृष्टमभि संवसा नो वैष्णवीम् लोक इह माधयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रसह्यसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః సుఖినో భవంతు